अहं सर्वस्य प्रभाव मतत् सर्वं भवतते इति मत्वा पतन्ते मां बुधा भावसमन्विताः मच्चिता मद्गता प्राणा बोधायन्तः परस्परं कथयन्तश्च मां नित्यं चुषन्ति चारमन्ति च तेषां सततयुक्तानं भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तं येन मामुपजन्ति ते तेषामिवानुकं भारतम् अहम् अज्ञानजं धमः न सायाम्यात्मभावस्तो ज्ञानदीपेन भास्वता